न ददाह भूरुहवनानि हरितनयधाम दूरगम् न स्म नयति परिशोषमपस्सुसहम् बभूव न च सिद्धतापसैः न ददाहेति दूरगम् व्यापकमित्यर्थः हरितनयस्य इन्द्रसुतस्य अर्जुनस्य धाम तेजः भूरुहवनानि वृक्षखण्डान् न ददाह अग्निवदिति भावः तथा अपह जलानि परिशोषम् न नयति स्म अर्कवदिति भावः तथापीति शेषः सिद्धाश्च तापसाश्च तैः सुसहम् न बभूव अतः अस्य अलौकिकम् तेजः इति भावः अत एव दुःसहत्व दाहाद्यजनकत्वयोः विरोधात् विरोधाभासः अलङ्कारः आभासत्वे विरोधस्य विरोधालङ्कृतिर्मता इति लक्षणात् विनयम् गुणा इव विवेकम् अपनयभिदम् नया इव न्यायमवधय इवाशरणाः शरणम् ययुः शिवमथो महर्षयः विनयमिति अथो अनन्तरम् अशरणाः महर्षयः मुनयः विनयम् शिक्षाम् गुणाः औदार्यादय इव अशिक्षिते तदभावादिति भावः अपनयभिदम् दुर्नीतिवारकम् विवेकम् सदसज्ञानम् नयाः नीतयः इव अविवेकिनः नीत्यभावादिति भावः नीतिषड्गुण्यप्रयोगः नीयते अनेनेति न्यायः नियामकम् प्रमाणम् तम् अवधयः इव समया इव अप्रामाणिकस्य समयोल्लङ्घनादिति भावः शिवम् शरणम् रक्षितारम् शरणम् गृहरक्षित्रोः इत्यमरः ययुः जग्मुः शरणत्वेन प्रापुः इत्यर्थः अशरणाः शरणमिति च उपमास्वपि यथायोग्यम् योज्यम् उपमालङ्कारः परिवीतमंशुभिरुदस्तदिनकरमयूखमण्डलैः शम्भुमुपहतदृशः सहसा न च ते निचायितुमभिप्रसेहिरे परिवीतमिति उदस्तम् निरस्तम् छादितम् दिनकरमयूखमण्डलम् यैः तैः सूर्यतेजोविजयिभिः इत्यर्थः अंशुभिः तेजोभिः परिवीतम् व्याप्तम् शम्भुम् शिवम् उपहतदृशः प्रतिहतदृष्टयः ते महर्षयः सहसा झटिति निचायितुम् निशामयितुम् द्रष्टुमित्यर्थः चायुरुपूजानिशामनयोः इति धातोः शकधृष इत्यादिना तुमुन् नाभिप्रसेहिरे न सेकुः अथ भूतभव्यभवदीशमभिमुखयितुम् कृतस्तवाः तत्र महसि ददृशुः पुरुषम् कमनीयविग्रहम् अयुग्मलोचनम् अथेति अथ दृगुपघातानन्तरम् भूतभव्यभवताम् भूतभविष्यद्वर्तमानानाम् ईशम् देवम् अभिमुखयितुम् अभिमुखीकर्तुम् कृतस्तवाः कृतस्तोत्रास्सन्तः न तु अन्यथेति भावः स्तवस्तोत्रम् स्तुतिर्नुतिः इत्यमरः तत्र पूर्वोक्ते महसि तेजसि कमनीयविग्रहम् रम्यमूर्तिम् अयुग्मानि त्रीणि लोचनानि यस्य तम् पुरुषम् ददृशुः अथ पञ्चभिः पुरुषम् विशिनष्टि ककुदे वृषस्य कृतबाहुमकृशपरिणाहशालिनि स्पर्शसुखमनुभवन्तम् उमाकुचयुग्ममण्डल इवार्द्रचन्दने ककुद इत्यादिना कीदृशम् पुरुषम् अकृशेन महता परिणाहेन विशालतया शालते इति तथोक्ते परिणाहो विशालता इत्यमरः वृषस्य वृषभस्य ककुदे अंसकूटे आश्रयीकृत इति शेषः आर्द्रचन्दने उमायाः कुचयुग्ममण्डल इव कृतबाहुम् न्यस्तहस्तम् अत एव स्पर्शसुखम् अनुभवन्तम् ककुदस्य तथाविधस्पर्शसुखकरत्वादिति भावः उपमालङ्कारः स्थितमुन्नते तु हि न शैलशिरसि भुवनातिवर्तिना सद्रिजलधिजलवाहपथम् सदिगश्नुवानमिव विश्वमोजसा स्थितमिति उन्नते तुहिनशैलशिरसि हिमवतः शिखरे स्थितम् क्वचित् कोणे स्थितमित्यर्थः तथापि भुवनातिवर्तिना सर्वलोकातिशयिना ओजसा तेजसा अद्रिभिः पर्वतैः जलधिभिः समुद्रैः जलवाहपथेन आकाशेन च सह वर्तते इति तथोक्तम् दिग्भिः सह वर्तते इति सदिक् उभयत्रापि तेन सहेति तुल्ययोगे इति बहुव्रीहिः विश्वम् अश्नुवानम् व्याप्नुवन्तमिव स्थितमिति उत्प्रेक्षा अशूङ् व्याप्तौ इति धातोः शानच् अनुजानुमध्यमवसक्तविततवपुषा महाहिना लोकमखिलमिव भूमिभृता रवितेजसामवधिनाधिवेष्टितम् अनुजान्विति जानुनोः मध्ये अनुजानुमध्यम् विभक्त्यर्थे अव्ययीभावः अवसक्तम् लग्नम् विततम् आयतञ्च वपुः यस्य तेन महाहिना अवसक्तिकाबन्धभूतेरेत्यर्थः अधिवेष्टितम् अत एव रवितेजसाम् अवधिना पर्यन्तभूतेन भूमिभृता लोकालोकाचलेन अभिवेष्टितम् अखिलम् लोकमिव स्थितमिति उपमा असूर्यम् पश्यापरभागो लोकालोकाचलः इत्यागमः परिणाहिना तु हि नराशि विशदमुपवीतसूत्रताम् नीतमुरगमनुरञ्जयता शितिना गलेन विलसन् मरीचिना परिणाहिनेति पुनश्च तुहिनराशिवत् विशदम् शुभ्रम् उपवीतसूत्रताम् यज्ञोपवीतत्वम् नीतम् प्रापितम् उरगम् शेषाहिम् अनुरञ्जयता स्वगुणोपरक्तम् कुर्वता श्यामीकुर्वता इत्यर्थः परिणाहिना विशालेन विलसम्मरीचिना प्रसृतकिरणेन शितिना नीलेन गलेन कण्ठेन उपलक्षितम् कण्ठो गलोऽथ ग्रीवायाम् इत्यमरः अत्र उरगस्य स्वधवलिमत्यागेन अन्यजन्यनीलिमग्रहणात् तद्गुणालङ्कारः तद्गुणस्वगुणत्यागात् अन्योत्कृष्टगुणग्रहः इति लक्षणात् प्लुतमालतीसितकपालकुमुदमुपरुद्धमूर्धजम् शेषमिव सुरसरित्पयसाम् शिरसा विसारि शशिधामबिभ्रतम् ప్లుతేతి. పునశ్చ మాలతీ జాతీ కుసుమం సుమనా మాలతీ జాతిహి ఇతి పుష్పే జాతీ ప్రభృతయ స్వలింగా వ్రీహయః ఫలే ఇతి చ అమరః. తద్వత్ సితం యత్ కపాలమేవ కుముదం తత్ప్లుతం ఆప్లుతం యేన తత్ తథోక్తం. ఉపరుద్ధమూర్ధజం వ్యాప్తశిరోరుహం అత ఏవ సురసరిత్పయసాం శేషమివ నిర్యాతావశిష్టం గాంగం అంబ ఇవ స్థితమిత్యర్థః. ఉత్ప్రేక్షాలంకారః విసారి విసృత్వరం శశిధామ చంద్రతేజః శిరసా బిభ్రతం. పురుషం దదృశురితి పూర్వేణ సంబంధః. మునయస్తతోభిముఖమేత్య నయన వినిమేష నోదితాః పాండుతనయ తపసా జనితం జగతామ శర్మ భృషమాచచక్షిరే. మునయ ఇతి తతః దర్శనానంతరం మునయః అభిముఖం ఏత్య శివస్యేతి శేషః. నయన వినిమేషేణ నేత్రసంజ్ఞయా నోదితాః ప్రేరితాస్సంతః పాండుతనయస్య అర్జునస్య తపసా జనితం తత్పూర్వోక్తం జగతాం అశర్మ అసుఖం దుఃఖమిత్యర్థః. శర్మశాత సుఖాని చ ఇత్యమరః. భృశం సమ్యక్ ఆచచక్షిరే కథితవంతః. తరసేవ కోపి భువనైక పురుష పురుషస్తపస్యతి జ్యోతిరమలవపుషోపి రవేరభిభూయ వృత్ర ఇవ భీమ విగ్రహః. తరసేతి హే భువనైక పురుష వృత్రః వృత్రాసుర ఇవ భీమ విగ్రహః కోపి అవిజ్ఞాతః ఇత్యర్థః. పురుషః తరసా బలాత్కారేణైవ తరసీ బలరంహసీ ఇతి విశ్వః. అమలవపుషః ఉజ్వలమూర్తేః రవేరపి జ్యోతిః అభిభూయ తపస్యతి తపశ్చరతి. కర్మణో రోమంథతపోభ్యాం వర్తిచరోః ఇతి క్యంగ్. సధనుర్మహేషుధి బిభర్తి కవచమసిముత్తమం జటాః వల్కమజినమితి చిత్రమిదం మునితా విరోధి నచ నాస్య రాజతే. స ఇతి కించ సః పురుషః మహాంతౌ ఇషుధి యస్య తత్ మహేషుధి ధనుః కవచం వర్మ ఉత్తమం అసిం ఖడ్గం జటాః వల్కం చీరం అజినం చర్మ చ బిభర్తి ఇత్యేవం రూపమిదం విరుద్ధవేషధారణం మునితా విరోధి మునిత్వప్రతిబంధకం తథాపి అస్య నరాజతే ఇతి న. కింతు రాజత ఏవేత్యర్థః. చిత్రం ఆశ్చర్యం సంభావ్యనిషేధనివర్తనే ద్వౌ ప్రతిషేధౌ ఇతి వామనః. చలనేవ నిశ్చలతి తస్య కరణనియమే సదిముఖం స్తంభమనుభవతి శాంతమరుద్గ్రహతారకాగణయుతం నభస్థలం. చలన ఇతి కించ తస్య పుంసః చలనే అవనిః పృథివీ చలతి తథా కరణనియమే సమాధిషు ఇంద్రియసంయమే సతి. కరణం సాధకతమం క్షేత్రగాత్రేంద్రియేష్వపి ఇత్యమరః. సదింముఖం దిక్సహితం శాంతైః స్థిమితైః మరుతాం వాయూనాం గ్రహాణాం సూర్యాదీనాం తారకాణాం గణైః యుతం. నభస్థలం వ్యోమస్తంభం నిశ్చలతాం అనుభవతీత్యర్థః. అతః విశ్వాతిశాయిని तस्य शक्तिः उपलभ्यते इति भावः न चैतदुपेक्ष्यमित्याशयेन आह स तदोजसा विजितसारममरदितिजोपसंहितम् विश्वमिदमपि दधाति पुरा किमिवास्ति यन्न तपसामदुष्करम् स इति सः पुमान् ओजसा विजितसारम् निरस्तसत्त्वम् अमरदितिजोपसहितम् सुरासुरसहितम् तदिदम् विश्वम् पुरा अपि दधाति अपि धास्यतीत्यर्थः शीघ्रमेव हरिष्यतीति भावः निकटागामिके पुरा इत्यमरः यावत्पुरानिपातयोर्लट् इति भविष्यदर्थे लट् तथा हि यत्कर्म तपसाम् अदुष्करम् तत् किमिवास्ति न किञ्चित् तेन दुष्करम् अस्तीत्यर्थः सामान्येन विशेषसमर्थनरूपः अर्थान्तरन्यासः विजिगीषते यदि जगन्ति युगपदथ सञ्जिहीर्षति प्राप्तुमभवमभिवाञ्छति वा वयमस्य नो विषहितुम् क्षमारुचः विजिगीषत इति सः पुरुषः जगन्ति भुवनानि युगपद् विजिगीषते यदि विजेतुमिच्छति वा पूर्ववत्सनः इत्यात्मनेपदम् अथ युगपत्सञ्जिहीर्षति संहर्तुमिच्छति वा अभवम् अपवर्गम् प्राप्तुम् अभिवाञ्छति वा न विद्मः वयमिति शेषः किन्तु वयमप्यस्य रुचः तेजांसि विषहितुम् सोढुम् तीशसह लुभरुषरिषः इति विकल्पात् इडागमः नो क्षमाः न शक्ताः केचित् रुचः कामितानि विषहितुम् अवधारयितुम् इति व्याचक्षते तत्र सहेः अवधारणार्थत्वं विचार्यम्।